ओम नमो भगवते श्री रमणाय श्री अरुणाचल महात्म्ये उत्तरार्धम प्रारभ्यते। व्यासोवाच वसन्तौ नैमिषारण्ये मुनयः सूतम् अब्रुवन् मुनयः ऊचु स्थानानामुत्तमम् शैवम् यस्तलम् तद्वदस्वनः। सूतोवाच यूयम् शृणुत यत्पूर्वम् नन्दीश्वरमुखाश्रुतम् मार्कण्डेयेन तद्वक्ष्ये मुनयः शृणुतादरात्। मार्कण्डेय उवाच नन्दीश्वर त्वया प्रोक्तो महिमा माध्यमेश्वरः मयाप्यवधृत सर्वो भक्तिश्रद्धार्धचेतसा तथापि वद मे भूयो देवदेव दयानिधे। अहम् यत्परिपृच्छामि भवन्तम् विहितादरः त्वयाप्यविदितम् किञ्चिन्नास्त्यत्र भुवनेऽत्र सर्वागमपुराणेषु बाह्येष्वप्यभ्यन्तरेषु च स्वर्गापवर्गयो पुंसाम् भूमि एष विशिष्यते सर्वकर्माणि निर्मातु तत्तत्फलपरायणैः फलम् च त्रिविधम् पुंसाम् त्वय्येव कथितम् पुरा भूमौ सुखम् स्वर्गभोग कैवल्यमिति भेदतः पुण्यक्षयेण क्षीयेत प्राय प्राथमिकम् द्वयम् क्षीयतेन तृतीयम् तु कर्मणामेव नाश्रया तत्सिद्धिस्तु त्वया प्रोक्ता विशुद्धज्ञानगोचरा सर्वेषाम् दुर्लभम् शुद्धज्ञानम् देहभृताम् पुनः तद्ज्ञानम् कुत्र वा क्षेत्रे शास्त्रादिपठनम् विना शिवपूजनमात्रेण सिद्ध्येत् सर्वशरीरिणाम् ज्ञानयोगक्रियाचर्या स्वशेषाणाम् शरीरिणाम् अपि शैवागमोक्तासु न बुद्धिसम् प्रवर्तते यस्य स्थानस्य माहात्म्यात् अल्पै अपि शरीरिणः लंस्यते नियमै शुद्धज्ञानम् तन्मम कथ्यताम् भस्म रुद्राक्षवहनादि ईश्वरस्मरणात् सकृत् यत्र मुग्धैरपि श्रेयो लभ्यम् तत्स्थानमुच्यताम् अबुद्धिपूर्वकेणापि यत्र वासेन देहिनाम् अविघ्नम् सेत्स्यते श्रेयस्थानम् तन्मे अनुगृह्यताम् जातानाम् वर्णसाङ्कर्ये तैरंसि योनिमीयुषाम् स्थावराणामपि श्रेयो यत्र तत्क्षेत्रमुच्यताम्। 16 श्लोक इति रयित्वा श्रमृकोण्डुनन्दन समम् मुनीन्द्रैः अपरैः महात्मभिः पपात तस्याम् त्रिसुरोरुहोद्वये शिलादसूनो अखिलागमाब्दे। इति प्रथमोऽध्यायः। अथ श्रीस्कान्द महापुराणे माहेश्वरखण्डे उत्तरभागे नन्दिकेश्वर मार्कण्डेय संवादे द्वितीय अध्यायः। ग्लोरी ऑफ मेनी शिवक्षेत्रस एंड तीर्थस 82 श्लोकास। नन्दिकेश्वर उवाच स्थानम् त्वया मुने पृष्टम् अस्ति माहेश्वराग्रणि चराचराणाम् सर्वेषाम् भूताम् अपि शर्मणि प्रकल्पितम् हि देवेन तत्तत्कर्माणुगुण्यतः शरीरभाजान् जननम् तासु तासु अपि योनिषु त्वया शुश्रूषितम् तेषाम् हिताय च महत्ते हि अलम् अन्यता संसृतेर्हानि कल्पकोटिशतैर्नहि स्वल्पैः कर्मभिज्ञानैः अपि प्राप्ता पुनः पुनः घटीयन्त्रणया जन्म मरणम् नैव शाम्यते कथम् नु विरतो देहि गर्भमोकसमागमा विश्रान्तये प्रकल्पेत विशुद्धज्ञानतो विना प्रदेशाः कथिता पूर्वम् प्रसङ्गवशतो मया ऋषिभेदादिकम् तेषु निवास कृत्तिवाससः केचित् तीरेषु गङ्गाया केचित् सारस्वते तते कालिन्दी तीरस्यो अन्ये कतिचित् श्रोणरोदसी अपरे नर्मदा तीरे परेण परे गोदावरी तटे कतिचित् गोमती तीरेषु अन्ये हेमवती तटे समुद्रपार्श्वेषु इतरे द्वीपेषन्ये सरस्वताम् मुखेषु केचित् सिन्धूनाम् सम्भवेषु केचन कृष्णवेणीतटे केचित् तुङ्गभद्रान्तिके परे उपवेण्याम कतिपये परे शक्त्यापगान्तिके कावेरी तीर इतरे केचित् वेगवती तटे अन्ये तु ताम्रपर्ण्याश्च कतिचित् मुरला तटे केचित् ऐरावती तीरे वित्रे जातु कांक्षिके कन्या तटेषु कतिचित् कचितित् कुमारी तरे परे च तमसा वरुणान्तिके अन्ये मन्दाकिनी सविधयो इतरे परेऽपि क्षिप्रा तटे परिसरेषु अवरे सरैव्या 14 विपाशाभ्यास इतरे शतद्रुति तटे परे चर्मण्वती उपकण्ठे एकेचित् भीमरति तटे केचित् बिन्दुसरोऽभ्यर्णे परे पम्पासरस्तटे अभ्यर्णकेऽपि भैरव्या कतिचित् कौशिकी तटे अपरे मालिनी तीरे परे गन्धवती तटे कतिचिन्मानसोपान्ते केचित् शोधरोदसी इन्द्रद्युम्न सरस्वत्या एके तु मणिकर्णिके परे तु वरदातीरे ताप्या कतिचिन्ना परे पातालगंगा सविधे शरावतीयन्तिके परे लोहित्येह कुलयोः केचित् कतिचित् कालमा तटे वितस्तोपान्तिके त्वन्ये चन्द्रभागान्तिके परे सुरलोपान्तिके केचित् योष्णीतीरयो परे केचिन् मधुमतीतीरे केचन अनुपिनाकिने उक्तम् वाराणसीक्षेत्रम् कोशपञ्चकपावनम् देवस्तत्र विमुक्ताख्यो विशालाक्ष्या समर्चितः कपालमोचनम् यत्र यत्रास्ते कालभैरवः मृतानाम् यत्र रुद्रत्वम् काश्यम् विद्धि हिताम् मुने गया प्रयागौ अपि ते कथितौ सर्वसिद्धिदौ यत्र पिण्डप्रदानेन तुष्यन्ति पितरः किल आकर्णितम् च केदारम् यस्मिन् मैषरूपदृग् देवोऽपि च हतो देव्या सर्वश्रेयस्करो नृणाम् सर्वसिद्धिकरम् पुंसाम् क्षेत्रम् बद्रिकाश्रमम् यत्रास्ते त्र्यम्बको देव्या नरनारायणार्चितः श्रुतम् हि नैमिषम् क्षेत्रम् त्वया यत्र महेश्वर देवदेवाविद पुण्यो देवी सा रङ्गधारिणी अमरेशम् इति स्थानम् प्रोक्तम् सर्वार्थसाधकम् ओङ्कारनामा तत्रेशश्चण्डिकाख्या महेश्वरी पुष्कराख्यम् महास्थानम् श्रुतम् ते कथितम् मया यत्र देवो रुजो गन्धी पुरुहूता महेश्वरी आषाढी नाम ते स्थानम् पावनम् कथितम् मया आषाढेषु हरस्तत्र रतीशा परमेश्वरी लण्डी मुण्डी समाख्यम् च स्थानम् ते कथितम् मया यत्र मुण्डी महादेवो दण्डिका परमेश्वरी लाकुलम् नाम ते स्थानम् संशुद्धम् कथितम् मया लाकुलेशो हरो यस्मिन् अनङ्गा सर्वमङ्गला भारभूति इति स्थानम् भवतो अभीतम् मया यत्र भाराविध शम्भुमूर्त्याख्या भूधरात्मजा अरालकेश्वरम् नाम स्थानम् ते कथितम् मया यत्र सूक्ष्माविध शूली सूक्ष्माख्या शैलनन्दिनी गया नाम महाक्षेत्रम् तव प्रस्तावितम् मया मङ्गलाख्या शिवा यत्र शङ्कर प्रपितामह कुरुक्षेत्रमिति स्थानम् भवते विनिवेदितम् यत्र स्थाणुप्रिया देवी देवस्थाणुसमावय उक्तम् खनखलम् नाम मया ते स्थानमुत्तमम् उग्रो यत्र पुराराति उग्रा गिरिवरात्मजा तालखाख्यम् महाक्षेत्रम् मार्कण्डेयम् मयोदितम् दविस्वाख्यम् भुवि यत्र स्वयम्भू परमेश्वर अट्टहासमिति प्रोक्तम् महास्थानम् मया तव यत्रार्कपूजयित्वेषम् आसीत् पूर्णमनोरथः कृत्तिवासाविदम् क्षेत्रम् मुक्तम् ते देववित्तमहयः कैलासादपि श्लाघ्यो निवासः कृत्तिवासः भ्रमराम्बिकाया देव्या महेशो मल्लिकार्जुनः श्रीशैले सृष्टिसिद्धर्थम् पूजितः परमेष्टिना सुवर्णमुखरी तीरे कालहस्तीति शंकरः व्यासे नाराधितो भृंग मुखरालक कथाम्बया। कांच्यम एकाम्र मूलस्थ कामाक्ष्या कामशासनः तपस्यन्ति अभि संश्लिष्टो वलयेनांकितो भवत्। अस्ति व्याघ्रपुरम नाम तिल्लिकानन मध्यगम यत्र नृत्यन्तम् ईशानम् पर्युपाश्रे पतंजलि। श्वेतारण्यमिति स्थानम् उक्तम् तव मया पुरा भग्नम् ऐरावतो दन्तम् भेजे यत्र शिवार्चना। सेतुवन्दम् इति स्थानम् अवोचम् तत्र राघवः रामनाथाख्यया देवम् अहोग्नम् प्रत्यतिष्ठते। गत प्रत्याह्वयस्थानम् विदिते वृषभध्वज यत्र जम्बूतरो मूले जगत्रक्षार्थमाश्रित। मणिमुक्ता नदी मन्वक्षेत्रे वृद्धाचलाहृदे नित्यम् सन्निहितो देव इत्याकर्णित एव ते। श्रीमन्मध्यार्जुनम् नाम श्रुतम् स्थानमनुत्तमम् यस्मिन् वरप्रदो नित्यम् गौरी सहचरो हर। आश्रितम् सोमनाथेन सोमतीर्थम् त्वया श्रुतम् यत्र त्यक्तवताम् देहम् न भूयो भवबन्धनम्। आकर्णितम् हि भवता क्षेत्रम् सिद्धवटाह्वयम् यत्र सिद्धाः समर्च्यन्ति ज्योतिर्लिङ्गम् अनुत्तमम्। अश्रावी खलु ते क्षेत्रम् कमलालय संनकम् वल्मीकेशार्चनालेभे यत्र श्रीजीविता हरे। श्रुतवान् असि कङ्काद्रिम् यत्र सन्निहितो हर इदानीम् विपासाते मोक्षाय ब्रह्म केशवो। श्रीमद्द्रोणपुरम् वेत्से यस्मिन् कलियुगक्षये नौकामारूढवानब्दौ क्षुभीते पार्वतीपते। श्रुतम् ब्रह्मपुरम् नाम क्षेत्रम् यत्रेन्द्रिय जटपुरा आर्यपुष्करिणी तीरे स्थापयामास दुर्जटिम्। श्रीकोटिकाख्यम् ज्ञानाभिक्षेत्रम् यत्रेन्दुशेखरः समाराधयताम् पुंसाम् पापकोटिव्यपोहति। आकर्णितम् च गोकर्णम् शिवम् यत्सन्निधानतः आरिराधयिषु स्वर्गम् जामदज्ञो न काङ्क्षति। त्रिपुरान्तकमुक्तम् ते क्षेत्रम् यत्र त्र्यम्बकः निराकरोति निरयद्भयम् दृष्टवताम् नृणाम्। उक्तम् कालाञ्जनक्षेत्रम् यद्वासी कालकन्दरः निर्वापयति भक्तानाम् घोरसंसारसञ्ज्वरम्। प्रियालवणमाख्यातम् क्षेत्रम् यत्राम्बिकापति पयोर्थिने पयसिन्धुम् विततारोपमन्यवे। क्षेत्रम् प्रभासमुक्तम् ते यत्र खण्डेन्दुशेखरः पूजित शौरिसिरिभ्याम् दत्तवामक्षयफलम्। वेदारण्ये विजानीषे यस्मिन् प्रमथनायकः अभ्यर्थितो अभुन्मोक्षार्थम् दक्षेण प्राकृतागसः। हेमकूटम् त्वम् अश्रौषि स्थानम् विषमचक्षुषः पुंसाम् तपस्यताम् यत्र पुनर्जननतो नभिः। क्षेत्रम् वेणुवनम् नाम विद्यते पापनाशनम् यत्र वंशलता गर्भात् जातो मुक्ता मणिः शिवा। जालन्धरम् इति स्थानम् अन्धकारे स्वया श्रुतम् लेभे गणपताम् तत्र तपस्याभिर्जलन्धरः। ज्वालामुखमिति स्थानम् ज्ञासी कथितम् मया यत्र ज्वालामुखी देवी कालरुद्रमपूजय। अस्ति भद्रवटो नाम क्षेत्रम् मुक्तम् श्रुतम् त्वया त्र्यम्बकम् यत्र हेरम्ब सम्पदे पर्यपूजयत्। न्यग्रोधारण्यमुक्तम् ते यत्रो ग्रो निर्ममेखिल चण्डताण्डवम् काल्यासा कंसङ्घर्षम् मेयिवान्। नन्दमादन सङ्गम् तत् क्षेत्रम् आकर्णितम् त्वया आञ्जनयेन रचितम् यत्र मृत्युञ्जयार्चनम्। गोपर्वतमिति स्थानम् शम्भो प्रख्यापितम् मया यत्र पाणे नालेभे वैयाकरणिका कृत वीरकोष्ठमिति क्षेत्रस्थानम् ननु अवधारितम् यत्र प्रचेतसालेभे तपसा कविमुख्यता महातीर्थमिति प्रोक्तम् जानीषे यत्र शम्भुना अध्यापिता सुपर्णाणा सर्वे अपि द्रुहिणादयः मयूरपुरमुक्तम् ते क्षेत्रम् माहेश्वरम् मया लेभे यत्र व्रतस्तेन हादिनी वज्रपाणिना श्रीसुन्दरमिति क्षेत्रम् उक्तम् वेगवती तटे कलावपि युगे यस्मिन् देवदेवेन दीप्यते कुम्भकोणमिति स्थानम् शम्भोर्वशी यत्र स गङ्गापि मागे सान्निध्यम् कुरुते स्वाघशान्तये अनो गोदावरी तीरम् त्र्यम्बकम् नाम ते श्रुतम् शक्तिम् यत्र गुहोलेभे तारकासुरघातिनीम् श्रीपाटलम् व्याघ्रपुरम् माख्याते तम् वेदवित्तम् शङ्कुना जातिशुद्ध्यै यत्र गङ्गाधरोचितः क्षेत्रम् कदम्ब पूर्याख्यम् भवनाचावधारितम् त्वत्कृते यत्र शूलेन कृतान्तम् शम्भुरक्षिणोत् अविनाशाख्यम् मुक्तम् ते क्षेत्रम् यत्र वृषध्वज सान्निध्यम् पडिकस्तायः वितार प्रसेदिवान् रक्तकारणमाख्यातम् मया क्षेत्रम् तवानघ मित्रावरुणयोर्यत्र रुद्रोऽजनी वरप्रदः श्रीहाटकेश्वरम् क्षेत्रम् पातालस्थम् त्वया श्रुतम् यत्र वैरोचनीर्देवम् स्वपदप्राप्तयेऽर्चते वेत्सी शम्भो प्रिया वराम् कैलासम् नित्यसेवक यत्र वेत्सी शम्भो प्रियावाराम् कैलासम् नित्यसेवकः यत्र यक्षेश्वरस्त्यक्षम् अभ्यर्चयति भक्तितः स्थानानि खण्डपरशो इति उक्तानि मया पुरा स्वयाप्य अवधृतान्येव किम् भूय श्रोतुमिच्छसि इत्युचिवानेश शिलादयो करेण पस्पर्शमौलो करुणारसाद्र तृतीयोऽध्याय एन्क्वायरी ऑफ अरुणाचल क्षेत्र मार्कण्डेय उवाच भगवन्त वचनेनालम् त्वदेक प्रवणेमहि किमादर्शोऽस्ति ते सृष्ट्या त्वत्कृपैवात्र साक्षिणि स्थानेषु प्राक्वदुक्तेषु फलानि च पृथक् पृथक् यत्र सर्वफलप्राप्ति स्थानम् तद्वद मे विभो चराचराणाम् भूतानाम् जानतामपि अजानताम् यस्य स्मरणमात्रेण मुक्तिस्तद्वद देशिक पश्यतेन मयैकेन भगवान्नानुराध्य तवैर्यप्येतदर्थम् हि मुनिभिः परिवार्यसे पुलहेन पुलत्स्येन वसिष्ठेन मरीचिना अगस्येन दधीचेन भृगुणात्रिणा ताबालिना जैमिनिना दौम्येन जमदग्निना उपयाजेन याजेन भरतेनावसेवित पिप्पलादेन कण्वेन कुमुदेनोपमन्युना कुमुदाक्षेण कुत्सेन वत्सेन वरतन्तुना विभाण्डकेन व्यासेन कण्वरिषेण कण्डुना माण्डव्येन मतङ्गेन कुक्षीणाम् माण्डकर्णिना षण्डकौशिक शाण्डिल्य शाकटायन कौशिकै शातातपमधुच्छन्दो गर्गसौभरि रोमशोय आपस्तम्ब पृथुस्तम्ब भार्गवोदक पर्वतै भारद्वाजेन दालिव्येन दान्तेन श्वेतकेतुना कौण्डिन्यपुण्डिरिकाव्याम् रैभ्येन तृणबिन्दुना वाल्मीकिना नारदेन वह्निना दृढमन्युना बोधायन सुबोधाव्याम् हारितेन मृकुण्डना दुर्वाससा तीक्ष्णेन जालपादेन शक्तिना कांक्वार्येण नन्तेन देवदेत्तेन अन्यंकुना सुश्रुता चाग्निवेशेन लोकाक्षेण विश्रवसा सैन्दवेन सुमन्तुना शिशुपायन औद्गल्य पथ्य चावन मातुरै ऋष्यश्रृंग पात्क्रौंच दृढ़गोमुख देवलै अंगिरो वामदेव और्व पतंजलि कपिंजलै सनत्कुमार सनक सनंदन सनातनै हिरण्यनाभ सत्याख्य वाताशन सुहोत्रुभिः मैत्रेय पुष्पजित सत्य तपसालिश्य सैशिरै निधाको तथ्य सर्वत शौलकाय निपराशय वैशाम्पयन कौशल्य शारद्वत कपिध्वजै कुशस्वार्चिक कैवल्य याज्ञवल्क्याश्वलायने कृष्णातपोत्तमानन्त करुणामलक प्रियै चरकेण पवित्रेण कपिलेन कणाशिना नरनारायणाभ्यां च दिव्यैश्चान्ये महर्षिभिः मत्प्रश्नोत्तर शुश्रूषा तत्परै प्रत्यवेक्षसे माहेश्वराग्रगण्यस्त्वं समस्तागम पारगः व्याप्तश्च सर्वलोकेषु यस्मात्तदनुसाधिनः त्वन्मुखादेव मग्वन् वयमेतेषु शिक्षिता पूर्वमेव त्वया देव किं वा अन्यत् उपपद्यते दिव्यागम पुराणानि द्रष्टव्य परमेश्वर कात्यायनी वा स्कन्दो वा भगवान् वा अथवा भवान् त्वयि यद्यस्ति नो भक्ति दया चास्मासु ते यदि रहस्यमिदम् उद्घाट्य प्रसादम् कर्तुम् अर्हसि इत्थम् मृकण्डु तनयेन सनन्दिकेषु विज्ञापितः स विनयम् स्मयमानवक्रम् तम् प्राह च उन्नततरम् शिवभक्तिमत्सु प्राग्भक्तितोषित शिवाप्तशरीरसिद्धिम् इत्थम् मृकण्डु तनयेन सनन्दिकेषु विज्ञापितः स विनयम् स्मयमानवक्रम् तम् प्राह चोन्नततरम् शिवभक्तिमत्सु प्राग्भक्तितोषित शिवाप्तशरीरसिद्धिम् इति तृतीयोऽध्यायः समाप्तः। चतुर्थ अरुणाचल क्षेत्र महिमा। नन्दिकेश्वर उवाच मुनिर्माण परीक्षार्थम् तथा त्वम् भाषितो मया तव चेन्ना विधास्यामि कस्य वा अन्यस्य कथ्यते त्वादृकन्योऽस्ति किम् लोके शिवधर्म परायण येन स्वल्पायुषाप्येवम् नित्येनाभावि भक्तितः कस्यान्यस्य कृते देव स्वस्यैवाज्ञाकरम् च मम क्रुद्धो नियन्त्रयामाश चरणाङ्गुष्ठपीडितम् त्वमेव शाङ्करान् धर्मान् सर्वान् विद्धि रहस्यत यो अग्रे असि कालवत् भ्रान्त परिपक्वोऽसि चेतसा त्वय्येवान्येन केनाहम् एवम् सुश्रुतस्थिरम् त्वयि वै कस्मिन् अन्यास्मि मापि प्रीतीदृशि उपदेक्ष्यामि ते क्षेत्रम् गुप्तम् तद्धर्मशासने भक्त्यावधारणीयम् यत् भक्तिकैवल्यकाङ्क्षिभिः आदरातनुयाजाम्नम् शिष्यम् यो देशिक स्वयम् उपदेशेन सन्तुष्टम् न करोति स किम् गुरु समाहितमना भूत्वा विश्वासम् कुरु शाश्वतम् मयोपदिश्यमाने अस्मि न रहस्ये परमेश्वरि स्मर स्मरान्तकम् देवम् वन्दस्वध्याय शाङ्करीम् उपाशुश्चारयोङ्कारम् श्रेयस्ते महदागतम् अस्ति दक्षिणदिग्भागे द्राविडेषु तपोधन अरुणाख्यम् महाक्षेत्रम् तरणेन्दुशिखामणि योजनत्र विस्तीर्णम् उपास्यम् शिवयोगिभिः तद्भूमे हृदयम् विद्धि शिवस्य हृदयम् गमम् तत्र देव स्वयम् शम्भु पर्वताकारताम् गतः अरुणाचल संज्ञावान् अस्ति लोकहितावह आवास सर्वसिद्धानाम् महर्षीणां सुपर्वणां विद्याधराणां यक्षाणां गंधर्वो अप्सरसामपि सुमेरु अपि कैलासाद्यसो मंदरादपि माननीयो महर्षीणां यः स्वयं परमेश्वरः स्पृहयन्ति यदि येभ्यो जन्तुभ्योऽपि दिवौकस अयत्नलभ्य मुक्तिभ्यो दिवावाश प्रवञ्चितः न कल्पवृक्षाः सदृशा यत्रत्यानां महीरुहां पत्रपुष्पफलै नित्यम् ये च यन्ति गिरौ हरौ हिंसैकरुचयो व्याम व्याघावी अपि रूपानुसारतः अनन्ता यत्र देवस्य प्रादक्षिण्यस्य फलांस्वदम् यद्दुर्देशचरा मेघा शिखराण्यभिबन्धका गंगावतो हिमवतोऽप्यधिकम् स्वं विजानते कलारा वा खगा यत्र क्वणन्ते किचकापि यक्षकिन्नरगन्धर्वै लभ्येते दुर्लभम् पदम् स्मरन्तो यत्र कद्योताः कृष्णपक्षे निषागमे अरार्तिकप्रदातृणान्दे वश्या स्वनुते पदम् निष्पृत्युः कृताश्लेषा नित्यम् यत् तटे निरुह सौभाग्यगर्वतो देवि अपर्णाम् अवमन्वते यस्योत्तुङ्गस्य शृङ्गाग्र सङ्गमापि तारका आत्मनोल्लब्ध सामान्याश्चन्द्रेण बहुमन्वते मृगा सर्वेऽपि सततम् चरन्तो यत्र सानुषु पाणिप्रणयिनम् शम्भो एनम् अपि अवजानते श्लोका 24 यस्य पादान्तिकचरैः प्रायेण शबरैरपि निकुम्भकुम्भसादृश्यम् अयत्नात् उपलभ्यते किम् बहुत्याभ्य श्रूयन्ते वै मातुरकुमारयो यदङ्गरूढातरव तिर्यञ्च शबरापि सिंहव्याघ्रद्वीपायस्मिन् काले त्यक्तकलेवरा वासप्रदत्त्वान् मान्यम् ते ध्रुवम् शोणाद्रिशम्भुना अस्य भास्करनामाद्रि पूर्वस्याम् दिशि दृश्यते यत्र स्थितः सदा वज्रि सेवते शौणपर्वतम् प्रतीच्याम् दिशि दण्डाद्रि इति कश्चिन्महीधरः प्राचेतस तद्गगगा सेवते अरुणपर्वतम्
श्लोका नम्बर् 29
दक्षिणस्याम् च शौणाद्रि अद्रि अस्य अमराचल काल शौणाद्रि सेवार्थम् अद्यासे तत् अत्यधिकम् उत्तरेऽस्मिन् हरिद्वागे सिद्धाध्यायसितकम् दर विराजते त्रिशूलाद्रि श्रीदेन परिपालितः तत्पर्यन्न प्रभूतानाम् अन्येषामपि भूभृताम् ततकेष्वपरे चैव दिक्पाला पर्युपासते धारिता येन सततम् सर्वेऽपि धरणीरुहा आराधनादपि अधिकम् अधिगच्छन्ति वैभवम् यस्मिन् गिरीशे सन्दृष्टिम् एनातु हिनभूभृतो समानसम्बन्धतया प्रमोदो वर्धते तराम् तरुपल्लवलक्षेण लक्ष्यमाणजटाधरा स्थावरोऽयम् स्वयम्भु शम्भु इहेश इव जङ्गमः ज्योतिष्मतो य शृङ्गस्य द्वीपार्श्वस्तेन्दुभास्करः जनक्ति स्वस्य लोकेभ्य तेजस्वित यन्नेत्रताम् वर्षासु शिखराद्धताभिनीलबलाहक विराजते य कण्ठेन कालकूटम् इवोद्वहन् सहस्रपादः सहस्रशीर्षो यः पर्वतेश्वरः उक्तो नः केवलम् श्रुत्या साक्षादपि उपलक्ष्यते शिरोलीनाम् मरसरित् श्रोता प्रागेति नाद्भुतम् गिरिशो अद्यापि यः शृङ्ग लीनानेकरारिद्गणः शिरोलीनामरसरित् श्रोताः प्रागेति नाद्भुतम् गिरीशो अद्यापि यः शृङ्ग लीनानेकरारिद्गण आसादितापकटक शारदै यपयोदरै विडंबयति गोश्रेष्ठम् आरूढवृषपुंगवम् यत्र श्रृंगाग्र संलग्न नीललोहित स्थाणुत्वं स्थावरत्वेन गहनत्वेन भीमताम् सुदुर्गम् मत्वा दुग्रत्वम् अपि धत्तेन नामतः क्षुद्राः सरीसृपा यत्र कटकेषु कृतास्पदा.
श्लोका 42.
तक्षकानन्त सर्पादो स्पर्धन्ते भुजगैश्वरै अष्टावियो अभितः कोणैराविर्भूतो विभूतिभिः सुस्पष्टम् विष्णस्तीव स्वकीय अष्टमूर्तिताम् यो न्याशक्तितरङ्गिन्यो इडापिङ्गलयो स्वयम् शिवस्य शृङ्गतो मध्ये सुषुम्ना कमलापगा ज्योतिस्तम्भस्वरूपस्य मूलाग्रे यस्य शीक्षतुम्.
श्लोका 44.
कोलहंसाकृतीनालम् ब्रह्म विष्णु बभूवतु ताभ्याम् च प्रार्थिता शम्भु तस्मिन् सान्निध्यवानुभूत् अरुणाचलनाथाख्यम् प्रपन्न प्रमदै समम् गौतमस्तत्र योगीन्द्र सहस्रम् परिवत्सरान् तप्त्वा तपांसि तीर्थानि साक्षाच्चेत् चक्रे सदाशिवम् प्रालेयशैलकन्यापि तत्र कृत्वा तपःपुरा सलब्धवामदेहार्धम् मन्मथारे प्रसेदुष गौर्या प्रतिष्ठितम् तत्र प्रवाला ईश्वराभिधम् लिङ्गम् भोगम् प्रदम् पुंसाम् कैवल्याय प्रकल्पते तत्र गौरी निदेशेन दुर्गा महिषमर्दिनी साक्षाद्भूय सताम् तत्ते मन्त्रसिद्धि भविद्यत खड्गतीर्थमिति ख्यातम् तत्र गौर्याश्रमे नवम् शकृन्निमज्ज मानृणाम् पञ्चपातकनाशनम् दुर्गया चार्चितम् लिङ्गम् पापनाशननामकम् शकृत्प्रणाममात्रेण सर्वपापप्रणाशनम् तत्र वज्राङ्गदो राजा वित्तसारो व्यतिक्रमात् पुनस्तद्भक्तिमाहात्म्या शिवसायुज्यम् आप्तवान् तस्य प्रदक्षिणेनैव कान्तिशाली कलाधरो विद्याधरेश्वरो मुक्तौ दुर्वासशापबन्धना नास्ति शोणादृतक्षेत्रम् नास्ति पञ्चाक्षरान् अनु.
55.
नास्ति माहेश्वरा धर्मो नास्ति देवो महेश्वर नास्ति ज्ञानम् शिवज्ञाना नास्ति श्रीरुद्रता श्रुति नास्ति शैवाग्रनिर्विष्णो नास्ति रक्षा विभूतितः नास्ति भक्ते सदाचारा नास्ति रक्षा करात् गुरु नास्ति रुद्राक्षतो भूषान् नास्ति शास्त्रम् शिवागमात् नास्ति बिल्वदलात् पत्रम् नास्ति पुष्पम् सुवर्णकान् नास्ति वैराग्यतः सौख्यम् नास्ति मुक्ते परम् वदम् नारुद्रे समो मेरु न कैलासो न मन्दरः ते निवासा गिरिव्याप्ता सौम्यम् तु गिरिश स्वयम् यति शिलादनन्दने उदितमनास मृकण्डुनन्दन पुनरपि बहुश प्रणम्यतम् चकितमना भवतो जिघ्नपत् किम् किम् ऋणाम् कर्म भवायजायते कथम् नो तन्नरकाय भूयते तेषाम् च तेषाम् च कथम् प्रतिक्रिया कथम् नो तत्तन् मम कथ्यतामिति. इति चतुर्थोऽध्यायः. चाप्टर् 5 उत्तरभागे एक्शन्स् एण्ड् देयर् कान्सिक्वेन्सेस् 25 श्लोकस्. नन्दिकेश्वर उवाच शुद्धसत्त्वगुणोपेतो लोकेऽस्मिन् दुर्लभः पुमान् रजस्तमो गुणोपेता भवन्ति सुलभा नरा सात्विक पुण्यशीलत्वात् निःश्रेयसवम् आप्नुयात् वैचित्र्यात् कर्मणामेषाम् अनुभोगाय वेदसा वैचित्र्याणि एव सृष्टानि नरकाण्यत्र तत्र च महारौरवभाग् भूत्वा खरः श्वाः शूकरोऽपि वा छण्डालो वा भवेत् प्रेत्य पुरुषो ब्रह्महत्यया चिरम् रौरव संरुद्ध कृमि कीटपतङ्गताम् प्राप्नुयात् कर्म कर्तृत्वम् सुरापानेन च द्विज ब्रह्मस्वहरणात् ब्रह्म राक्षसत्वम् अवाप्नुया यद्वित्तश्चोरयेत् तत् शून्यम् स्यात् अन्यजन्मनि असि पत्रावने पीडाम् वा अप्ययम् सुचिरम् पुनः नपुंसकत्वम् सङ्गच्छेत् पुरुषो गुरुतल्पगः तत्रैकालाय दण्डै पीडितो यमकिङ्करै नरके कालसूत्राख्ये निवसेत् परदारगः अग्निदो निवसेत् दोरे सुघोरे गरदायकः महागोरा च पिशुनो अवीच्यो घर्मविनन्दकः वसेत्कराले मित्रद्रुक् भीमे हिंसैकतत्परः संहारेच्छन्नापिष्टो मृषवादी भयानके असि घोरे वसेद्वापि कूपक्षेत्र नरादिहृत् वज्रे परद्रोहरतो मासासि तरले द्विज तीक्ष्णे मातृपितृद्रोही तापने जपदूषकः अश्वघ्नोऽपि निरुच्छ्वासे वसेत् गोघ्नश्च दारुणे भ्रूणः निवसेत् चण्डे श्रीहत्या कृतकूकुलके देवस्वहारि दहने घोरघोरे परस्वहृत् क्रोतान्तदूता नरके सर्वानेव हि पापिनः बध्नन्ति पाशै निघ्नन्ति दण्डविन्द्यन्ति शङ्कुभिः तीक्ष्णायश्चञ्च वैकङ्का क्रूरद्रष्टा महोरगः कालयकाश्च व्याघ्राश्च हिंस्राश्चान्ये दंशति अमुन् शकलीकुर्वते शस्त्रै दहन्ति देहमेव च खनन्ति गहने श्वभ्रे कषा विस्ताडयन्ति च तैलद्रोण्या विपञ्च्यन्ते तुद्यन्ते सूक्ष्मसूचिभिः वाह्यन्ते दुर्वहान् भारान् यमदूतैः पापिनः ब्रह्माक्षयरोगी स्यात् सुरापश्या वदन्तकः स्वर्णापहारी कुनसि दुष्टमा गुरुतल्पगः अपस्मारि गुरुद्रोही चण्डालो वेददूषकः कूटस्साक्षी चाक्षिरोगी मन्दाग्निश्चाग्रभोजनः विद्यापहारी मूकः स्यात् अन्धपुस्तकचोरकः परदाररत पङ्गु बधिर परनिन्दकः विडुवराहो नीराचारो जिह्वरोगी च तस्करः अभ्यागतातिथित्यागी कपोलकण्टको भवेत् पर्वसु स्त्रीरतो मेहि पूत्यास्यो अभक्ष्यभक्षकः मर्यादाभेदको वास तटाका तामहृत्खरः प्रतिश्रुता प्रदाता स्यात् अल्पवायुष्वाविकथनः विष्णुद्रोही च शरठः शिवद्रोही च मूषकः एवम् पापफलम् ज्ञात्वा प्रायश्चित्तम् समाचरेत् तश्चास्मिन् अरुणक्षेत्रे कर्तव्यम् सम्यगास्तिकैः 25 इति निशम्य स दुष्कृतकारिणाम् बहु विधाम् नरकेषु नृणाम् व्ययाम चरणयो पतितश्च तदा पुनः पुनः अयाचत तत्समन क्रियाम् इति पञ्चमोऽध्यायः समाप्तः षष्ठोऽध्यायः पापनिवृत्त्यर्थम् प्रायश्चितकर्माणि
चाप्टर् 6 एक्स्पियेशन् आफ् सिन्स् 38 श्लोकास्
नन्दिकेश्वर उवाच विश्वरात् कथयाम्याद्य प्रायश्चितम् महाहंसाम् सर्वेषाम् अवदत् सत्त्वम् अवलम्ब्यास्ति किम् धियम् ब्रह्मः प्राप्य शोणाद्रिम् निमग्न खड्गतीर्थके जप पञ्चाक्षरम् मन्त्रम् भस्म रुद्राक्षधारकः ऋतोपवास सम्पूज्य प्रयतः परमेश्वरम् ब्राह्मण बोधयेत् वर्षम् भिक्षासि नियतेन्द्रिय विशेषपूजाम् शुश्रूषाम् कुर्याद्देवस्य भक्तितः ब्रह्महत्या विनिर्मुक्तो ब्रह्मलोके महीयते सुरापोऽप्यरुणक्षेत्रे वर्षमेकम् वसन् प्रति प्रागवत्कृत समाचार संपूज्य एवं महेश्वरम क्षीरेण स्नपयेद्देवं शतरुद्रियमुच्चरेत्। सुरापानोद्भवेन आशु पापेन परिमुच्यते। सुवर्णस्तेय कृष्ण क्षेत्रे बिल्वदलैहरम् अभ्यर्च्य भोजयेत् विप्रान् पापान् मुच्येत दुष्कृतात्। गुरुदारतीर्गत्वा कृत्तिकस्वरुणाचलम् यथा पूर्वम् रथी भूत्वा सहस्रेण प्रदीपकै मासनयम् समाराध्य श्रीश्रवणाचल शङ्करम् प्रदद्याद्भूषिताम् कन्याम् ब्राह्मणाय सुधीमते। षडक्षरम् जपेन्नित्यम् तेन मुच्येत पाप्मना। शिवलोके च निवसेत् दासम् सारम् न संशय। परदारापहर्ता च क्षेत्रे अस्मिन् यतेन्द्रियः। मासम् एकम् न वै पुष्पै अभ्यर्च्यारुण शङ्करम् माहेश्वराय वितरे धनम् शक्त्यानुगुण्यतः। तत्क्षणेन विनिर्मुक्त तस्मात् पापात् भविष्यति। गरदः अपि अरुणक्षेत्रे व्रती भूत्वा यथा पुरा शिक्षिरोपहारम् देवाथ दत्त्वा दोषेण मुच्यते। पिशुनोऽपि अरुणक्षेत्रे व्रती वेदरतो नरः। अध्यापयेत् द्विजान्मुख्या सतो निष्कलम् मशो भवे। अग्निदोऽपि अरुणक्षेत्रे त्रिमासान् पूर्ववद् व्रती दद्याशैवाय निर्माय्य गृहम् तत्पापशान्तये। धर्मनिन्दाकर श्रवणक्षेत्रे वर्षम् व्रती वसन् पत्राधिकम् प्रकुर्वीत यथाशक्त्यशान्तये। पितृद्रोयऋणक्षेत्रे तिष्ठन् मासम् अतन्द्रितः। गिरीशाय द्विजेभ्योऽपि प्रदद्यात् गाः सहस्रशः। ग्रहोपरागकालेषु भोजयित्वा द्विजान् बहून् विमुञ्चेत् वृषभम् नीलम् विमुच्येत तो अहंसः। श्रीघ्नश्चापि शिशुघ्नोऽपि श्रवणक्षेत्रम् उपेयवान्। व्यतिपाते तिलान् दद्यात् विजेभ्यो दुरितच्छिदे। प्रच्छन् पापकृत् श्रवणक्षेत्रेऽस्मिन् नियतेन्द्रिय। गुप्तदानानि कुर्वीत भवेत् वैगतकल्मषः। मृषाभाष्य ऋणक्षेत्रम् षण्मासान् निवसन् व्रति। श्रवणाचलेश्वरस्तोत्र पाठेन स्याद् अकल्मषः। कूपादिभेदकृत् श्रवणक्षेत्रम् आसाद्य भक्तितः। तटाकान् खानयेत् तत्र ध्रुवम् निर्वृजिनो भवेत्। क्षेत्रापहारी देवाय क्षेत्रम् दद्यात् महाफलम्। आरामकण्टकोऽप्यस्मै दद्यात् दुधानमुत्तमम्। गृहापहारी कुर्वीत देवस्यायतनम् नवम्। अंहसा तेन निर्मुक्त शिवसायुज्यम् आप्नुयात्। परद्रोही वसक्षोणक्षेत्रे माहेश्वरान्दने प्रीणयित्वा परान् लोकान् निःसंशयम् अवाप्नुयात्। पश्वादिमांसभुक्षोणक्षेत्रे पक्षताम् व्रति प्रीणयेत् अरुणेशानम् सोपहारै मनोहरै। त्रिशोणाचलनाथेति निनदन् अनघो भवेत्। निवसन् अरुणक्षेत्रे पूजयेत् अरुणेश्वरम्। अरुणेश्वरमन्त्रम् च जपेन्मोक्षेश्वरादरात्। यस्याभिहितम् तेन पद्याम् येन प्रदक्षिणाम् कुर्वतारुणशैलस्य तत्प्राप्यम् शुभमञ्जसा। क्षेत्रेषु अखिलेतेषु अत्याहिते दुःस्वप्नदर्शने प्रीत्युत्कर्षे अपि च बुद्धे उच्चार्यो अरुणशङ्कर। अपि वर्णाश्रमभ्रष्ट शिशद्रोहरतोऽपि वा त्रीणि अहानि अरुणक्षेत्रे वसन् मुच्येत् पातकै। पार्थिव शिवलोकोऽयम् मूर्तिमेतत्रयी शिरः। एष दक्षिणकैलासो यो असौ अरुणपर्वत। अन्येषु सिद्धक्षेत्रेषु तपोभिः सिद्धयो नृणाम् अस्मिन् स्मरणमात्रेण तारतम्यम् विचिन्त्यताम्। यद्गङ्गायाम् प्रयागे च काश्याम् वैपुष्करेषु यत् कर्मसेतौ च यत् पुंसाम् श्रवणक्षेत्रे ततोऽधिकम्। अग्निष्टोम वाजपेय वायराजम् सर्वतोमुखम्। राजसूयाश्वमेघौ च कुर्यात् श्रवणाचले बुध। एकाहम् वारुणक्षेत्रे नरो यत् स्यात् उपोषितः तस्य चांद्रायण शतम् भवेश सांतपनायुतम् षोडशापि महादानान् अरुणक्षेत्र सन्निधौ अनुष्ठितानि कल्पोक्तम् कुर्वत् द्विगुणम् फलम् इति नन्दिकेश्वर मुखेन शुश्रुवान् मुनिनन्दनो तन्निरत प्रतिक्रियम् अभिनन्द्यतम् वद दिनत्तु वत्सर प्रमुखार्हण क्रमम् इति व्यजिज्ञुपद् इति षष्ठोऽध्यायः सप्तमोऽध्यायः काम्यकर्म नन्दिकेश्वर उवाच रक्तोत्पलै अर्कवारे यः श्रोणाद्रिम् अर्चयेत् अवश्यम् तस्य सिद्ध्यन्ति सार्वभौममहृदयः सौम्यवारे अरुणाद्रीशम् कस्तूरीकरवीरकै यः पूजयति तस्य स्यात् सत्यलोके सुखासिका गुरुवारे शिताम्भोजै श्रोणेशम् परिवश्यतः जनलोके चिरं वास सिद्धै सह भविष्यति चम्पकै मल्लिकादिश्च शुक्रवारे समर्चय तपोलोकम् प्रपद्येत ब्रह्मर्षिभिः अभिष्टुत शौरिवारे च जातिभिः समाराध्य ऋणेश्वरम् न जातु यमलोकानाम् पापीयानामपि कल्पते गुरुवारे सिताम्भोजै श्रोणेशम् वारिवश्यत जनलोके चिरं वास सिद्धै सह भविष्यति चम्पकै मल्लिकाभिश्च शुक्रवारे समर्चयेत् तपोलोकम् प्रपद्येत ब्रह्मर्षि अभिष्टुत शौरिवारे च जातिभिः समाराध्य ऋणेश्चरम् न जातु यमलोकानाम् पापीयानपि कल्पते प्रथमायाम् यो देवस्य उपहारम् समर्पयेत् यः पायसे न च स भवेद्धनधान्यसमृद्धिमान् द्वितीयस्याम् तिथौ भक्त्या यो दद्यन्नम् निवेदयत् स भवेत् भाग्यवान् श्रेष्ठ सोमपास भवेद् ध्रुवम् तृतीयायाम् च यः अपूपये श्रोणेशम् परितर्पयेत् तस्याहतमो राज्ञम् आशरीरम् भविष्यति चतुर्थ्याम् अरुणेशाय पूर्णकुम्भोत्करादिकम् निवेदयति यः तस्य भवेत् पूर्णमनोरथः मुद्गौदनम् च पञ्चम्याम् उपहारम् प्रकल्पयेत् श्रोणेश्वराय भक्त्याय सस्यात् अक्षय वैभवः षष्ट्याम् गुडोदनम् दद्यात् अरुणाचल सम्भवे भक्त्याय तस्य सन्तानो न कदाचित् प्रहीयते तिलोदनम् यः सप्तम्याम् श्रोणेशाय समर्पयेत् स दीनोऽप्यघर्मणद्वयम् अयत्नेन व्यपोहति अष्टभ्याम् राजशाल्यान्नम् यो दद्या श्रोणेश सम्भवे तस्य सेवाम् विनापि स्यात् राजलोको वशीकृतः गोधूमान्नम् नवम्याम् च श्रोणाद्रीशाय यो अर्पयेत् राजयक्ष्मादय तस्य न भविष्यन्ति जातु च दशम्याम् श्रोणनाथाय य करम्भम् निवेदयत् स भवेत् सर्वलोकानाम् सदैव प्रीतिभाजनम् पृथुकै उपहाराण्ये एकादश्याम् प्रकल्पयेत् अरुणाचलनाथस्य स भवेत् कुतो भयः द्वादश्याम् श्रोणानाथाय सुपोदनम् निवेदनम् यः करोति भवेत् तस्य निर्विधातो मनोरथः यः सक्तुम् अरुणेशाय त्रयोदश्याम् समर्पये तस्या व्याकुलचित्तत्वम् अश्रान्तमपि जायते अर्पये श्रोणनाथाय फलानि विविधानि यः चतुर्दश्याम् समूढोऽपि सिद्धसारस्वतो भवेत् यः पौर्णमास्याम् श्रोणाद्रीनाथाय विनिवेदयत् पनसस्य फलम् तस्य चक्षुरोगो न जायते कुह्वाम् च सङ्गमे भक्त्या कन्दमूलादियो अर्पयेत् श्रोणादिचलेश्वर या अस्य तुष्यन्ति पितर किल अश्विन्याम् अरुणेशाय दद्यात् वासांसि शक्तिमान् भरण्याम अरुणेशाय दद्यात् आभरणान्यपि कृत्तिकासु प्रदीपांश रोहिण्याम रौप्यम अर्पयेत् मृगशीर्षे अमलयमान आद्रायाम हरिचंदनम पुनर्वसु मृगमदम पुष्यैकर्पूरम अर्पयेत् काश्मीरोद्भवम आश्लेषे मघायाम तु हिनोदकम् तांबूलम पूर्व फाल्गुन्याम धूमम उत्तर फाल्गुने काला गुरुश्च हस्तक्षय चित्रायाम यक्ष कर्दमम स्वात्याम सुवासिनी वृंदम विशाखायाम प्रकीर्णकम चैत्रे मुक्तातपत्रम च ज्येष्ठायाम दैनुकान्यपि मूले मुक्ता सरान पूर्वाषाढ़े मुकुटपर्य रत्नानि च उत्तराषाढ़े श्रवणे भद्र पीठिकाम अष्टापदम घनिष्ठायाम वासशत विसज्यपि पूर्वा भाद्रपदे भोगान उत्तरायाम तुरंगमान रैवत्याम च रतम हैमम प्रदद्या श्रवण संभवे दद्यात् कृत्वा महापूजाम तत एव अर्पयन्नर पूज्यो राशिषु मेषादिस्वर्णेशो विशेषतः सिन्धुवारै कुरुबकै ककुबै पाटलै क्रमा कुटजै नीपकुसुमै जीवन्ति मल्लिकादिभिः सरोरुहै दमनकै नन्द्यावर्त सरोरुहै पञ्चामृतेन स्नपयन्नो उभयोः उपरागयोः पञ्चाक्षरेण कुर्वीत शोणनाथस्य भक्तितः स्नपन् पञ्चगव्येन द्वयोः अयनयोऽपि षडाक्षरेण कुर्वीत गव्येन स्नपनक्रियाम् प्रणवेनैव कुर्वीत क्षीरेण स्नपनक्रियाम् अरुणाचलनाथस्य भक्त्या विषुवयो द्वयोः प्राह्ये स्यात् रुद्रतुलसी मध्याह्ने कृतमालकम् अपराह्ने मल्लिका च शोणादिशस्य सस्यते अर्धोदये स्नपये सहस्रकलशोदकै शतरुद्रीयमुच्चार्य श्रीशोणाचलसम्भवे शिवरात्रिविशेषेण त्रिशिखै बिल्वपत्रकै कमलै कर्णिकारैश्च जागरूको यतेन्द्रियः गीतवादी नृत्यैश्च दिव्यागम विधानतः पूजयेत् अपवर्गार्थम् श्रवणशैले महेश्वरम् मासि पौषे च देवस्य कुर्यादाग्नेयमुत्सवम् नवाह्नैरूप दंशाद्यै व्याहृतिम् उच्चरन् बुधः वैशाखे च विशाखायाम् शिवतन्त्रानुसारतः श्रवणाचलेश्वरस्यास्य कुर्यात् पद्मकोत्सवम् प्राबोधिक मार्गशेषे प्रातर्निर्माय सामभिः महापूजाम् कुर्वीत श्रवणशैलस्य भक्तिमान् शनिप्रदोषेषु आद्रास्तु व्यतिपातेषु पर्वसु सोमार्कवारयो सार्चै श्रवणादृशम् यथागमम् दीक्षोपनयनोद्वाह पुत्रजन्मादिकेष्वपि विशेषपूजाम् कुर्वीत श्रवणनाथस्य भक्तिमान् अपि स्वजन्मनक्षेत्रो सम्पात्स्वापत्सु भीतिषु प्रवेशनिर्गमनयोश्चार्चनीयो अरुणेश्वरः व्रती चक्रागमे पादम् बन्धनै नववैभवै अरुणेशार्चनम् कुर्यात् अभियानेषु च द्विषाम् स्मरेत् अतिदेवीयाश्चेत् पश्येत् पर्यन्तगो यदि स्थितश्चेत् दरुणक्षेत्रे त्रिकालम् पूजयेत् शिवम् किमन्यत् वद वत्सेति उद्धृत्य भुजमुच्यते अरुणक्षेत्रतो नान्यत् अलम् स्वर्गापवर्गयो स्मरणेन मनः श्रोतृश्रवणात् दर्शनादृशो जिह्वाश्च कीर्तनात् श्रवणक्षेत्रम् सद्य पुनात्यलम् अरुणेऽस्मिन् महाक्षेत्रे देहिभिः लब्धजन्मभिः जीवद्भिः लभ्यते भोगो मोक्षस्य मुक्तजीवितै अन्यत्र मुक्तदेहानाम् अप्यता सार्धकर्मणा अपि पापात्मनाम् पुंसाम् अपवर्गो भविष्यति। अयोध्या मथुरा मायाम काशीम कांचीम अवंतिकाम द्वारकाम चारुण क्षेत्रम अतिशेतेन संशयः 52 इत्युक्तम् पन्तम् च शिलादपुत्रम् मृकण्डसूनु पुनरुक्त्युवाच महात्म्यमेतन्महनीयकीर्ते भूयोऽपि पृच्छामि वदस्व मह्यम् इति सप्तमोऽध्यायः अष्टमोऽध्यायः सृष्टिवर्णनम् नन्दिकेश्वरो उवाच अरुणाचलमाहात्म्यम् विस्तरात् परिपृच्छता मार्कण्डेय त्वया मन्ये मयि अन्यस्तु महान् भरः स्थाने कुतूहलाक्षिप्तम् मनस्तव महामते यक्षोणादेशचरितम् न वेत्तिर नर पशु कथम् वा शक्यते वक्तुम् जानान्नैरपि काश्यतः श्रोणाचलजुषसम्भो माहात्म्यम् महितोदयम् कथम् वा श्रुतम् अप्येतत् आश्चर्य रसभावितै अशेषमवधारेत प्रज्ञावत्प्रवरैरपि इदानीम् स्मरश्चिताम् तु चरित्रम् स्मरवैरिणा परामृतानुभूत्यैव विष्टरस्रवसम् देवो वामाङ्गेन च सृष्टवान् ब्रह्मणाम् रजसा विष्णुम् सत्त्वेन समयूयुजत् नियुक्तौ देवदेवेन तौ विरञ्च च्युतौ उभौ ईशाते सर्वजगताम् सृष्टिरक्षाविधानयो मनसमारिच्यादिन् स्वसर्ज ब्राह्मणान् दश दक्षम् च दक्षिणाम् दुष्टात् सृष्टिः प्रावर्तयेद्विधि मुखेन ब्राह्मणादोर्भ्याम् क्षत्रिया उरुतो विषः शूद्रांश्च पद्भ्याम् निर्मात् स्वयम् च कमलासनः मरीचीतनयार्जुः कश्यपात् असुरासुरा मरुत फणिनो गृह्या गन्धर्वाप्सरसोऽपि च मनुश्च यस्य सन्तानो मानसोऽयम् प्रवर्तते नानाज्ञातित्वम् आपाद्य नानाकर्म प्रवर्तका अताश्च समभूतार्षम् क्षात्रम् च द्विविधम् कुलम् पुलत्स्य पुलहाभ्याम् च जग्निरे यक्षराक्षसाः उतत्य गीष्पतिमुखा जग्निरे अङ्गिरसो मुने भृगो अग्निसमुद्भूच्य च्यवनाद्याततर्षय वसिष्ठप्रमुखेभ्यश्च सम्बभूः महर्षय यत्पुत्र पौत्रो पौत्रौ भुवनमिदम् आपूर्यते अखिलम् एवम् ब्रह्मात्मजै स्वीयै इदम् आपूरयत् जगत् कालेन वैभवेनापि विसस्मार महेश्वरम् अच्युतोऽपि भृगो पुत्रो उद्वाहा कमलालयाम् मत्स्यादिरूपो जगते भवन्नास्मरदीश्वरम् सृष्टिस्थितिभ्याम् द्रुविणाब्जनाभौ स्वाधीनताम् नूनमुपागताभ्याम् अतीव गर्वम् ददतु न कस्य मदोदिकारेण भवेन्नरस्य इति अष्टमोऽध्यायः।